एस रेडियो नेपाल सम्प्रति समाचारा श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। स्थानीय स्तराणाम् निर्वाचनस्य इदानीं यावत् पञ्चनवत्यधिक षट्शतस्य स्थानानाम् परिणामः प्राप्तो वर्तते। एतदनुसारेण नेपाली कांग्रेस दलेन सप्तोत्तर शतत्रयस्य, नेकपा एमाले दलेन अष्टाशीत्यधिक शतस्य, नेकपा माओवादी केन्द्रेण विंशत्यधिक शतस्य, जनता समाजवादी दलेन ऊनविंशतेः, नेकपा एकीकृत समाजवादिना नवानाम् अन्यश्च द्वापञ्चाशतः पालिकानाम् प्रमुखपदे अध्यक्षपदे वा विजयः अधिगतोऽस्ति। मतगणनायाः पश्चात्तन परिणामस्य अनुसारेण सुनसरी जनपदस्य हरिनगर ग्रामपालिकायाः अध्यक्षपदे नेपाली कांग्रेस दलस्य गफार अंसारी विजयी संवृत्तो वर्तते। उपाध्यक्षपदे च कांग्रेस दलस्यैव रिमझिम कुमारी भगतः विजयम् अलभत। झापा जनपदस्य अर्जुनधारा नगरपालिकायाः प्रमुखपदे नेकपा एमाले दलस्य प्रत्याशी बलदेव सिंह गोमदेन तामाङ विजयी संवृत्तोऽस्ति। उपप्रमुखपदे च एमाले दलस्यैव खड्गमाया पराजुली विजयम् प्राप्तवती। महोत्तरी जनपदस्य जलेश्वर नगरपालिकायाः प्रमुखपदे जनता समाजवादी दल नेपालस्य सुरेश शाह सोनारः उपप्रमुख पदे च अस्यैव दलस्य रौशन खातुन। सप्तरी जनपदस्य बोधे बरसाइन नगरपालिकायाः प्रमुखपदे जनता समाजवादी दलस्य आतेश कुमार सिंह यादवः, उपप्रमुखपदे च एतस्यैव दलस्य रेणु कुमारी शाहः विजयम् अलभन्त। कपिलवस्तु जनपदस्य विजयनगर ग्रामपालिकायाः अध्यक्षपदे नेकपा एमाले दलस्य गोपाल थापा, उपाध्यक्षपदे च एमाले दलस्यैव लक्ष्मी कुमारी थारू विजयम् अलभताम्। रौतहट जनपदस्य माधव नारायण नगरपालिकायाः प्रमुखपदे नेपाली कांग्रेस दलस्य वैजनाथ प्रसाद यादवः, उपप्रमुखपदे च जनता समाजवादी दलस्य निर्मला देवी रमणः विजयम् अलभताम्। मतगणनायाः पश्चात्तन परिणामस्य अनुसारेण विराटनगर महानगरपालिकायाः प्रमुखपदे नेपाली कांग्रेस दलस्य नागेश कोइराला त्रिंशत् सहस्राणि सप्तत्यधिक शतं च मतानि प्राप्य निर्वाचितो वर्तते। एवमेव महानगरस्य उपप्रमुखपदे नेकपा एमाले दलस्य शिल्पा कार्की पञ्चविंशति सहस्राणि अशीत्यधिक षट्शतं च मतानि अवाप्य निर्वाचिता वर्तते। मतगणनायाः परिणामस्य प्राप्तिक्रमः अविच्छिन्नोऽस्ति। सिन्धुली जनपदे स्थानीय स्तराणाम् निर्वाचनम् सम्पन्नमस्ति। प्रत्याशिनः विभिन्नानाम् दलानाम् कार्यकर्तारश्च नवनिर्वाचितैः जनप्रतिनिधिभिः सह विजयोत्सवे संलग्नाः दलीदृश्यन्ते। परम् निर्वाचितेषु जनप्रतिनिधिषु महिलानाम् संख्या अतीव न्यूनास्ति। राजनीतिकवृत्तौ स्त्रीणाम् अल्पसंख्यायाः कारणेन महिलाधिकारस्य हननम्, गार्हस्थ्य महिला हिंसायाः समस्यायाः निवारणे विलम्बम् च भवतीति अस्माकम् सिन्धुली जनपद संवाददात्री सरला सुनार सूचयति। मकवानपुर जनपदे ह्यः सायं दुरापन्नायां यान दुर्घटनायां चत्वारो मृताः, चत्वारो जनाः आहताश्च सन्ति। वीरगंज स्थानात् काष्ठमण्डपं प्रति प्रस्थीयमानं डीआई नामधेयं यानं मकवानपुर जनपदस्य इन्द्र सरोवर ग्रामपालिकायाः द्वितीय वडा क्षेत्रस्य कुलेखानी जलाशयस्य समीपे सिमखोला नामके सेतौ दुर्घटितं सत् चत्वारो जनाः मृताः इति मकवानपुर जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः टेक बहादुर कार्की अबोधयत्। मृतकानां सत्यापनम् अवशिष्टमस्तीति प्रहरी ज्ञापयति। आहतानां जनानां मध्ये त्रयाणां जनानां उपचारः हेटौडास्थाने, एकस्य च उपचारः काष्ठमण्डपे सन्तुलन अस्तीति प्रहरी सूचयति। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः कथयति पञ्चदलीयं घटबन्धनं सफलायमानं वर्तते। भक्तपुरस्य थिमी नगरपालिकायां घटबन्धनस्य पक्षतः निर्वाचितान् जनप्रतिनिधिन् कुमलटारवर्तिनी प्रचण्ड निवासे ह्यः सम्मानयन् अध्यक्षः प्रचण्डः अगदत् देशे विकासस्य कार्यं घटबन्धनस्य दायित्वमस्ति एवं राजनीतिक परिवर्तनस्य स्थायित्वस्य विकासस्य च नवीना यात्रा प्रारब्धास्ति। घटबन्धनम् न केवलं प्रदेशसंघयोः निर्वाचनं यावत् अपि तु तदनन्तरमपि विकासस्य कार्येषु अपि घटबन्धनस्य निरन्तरता भविष्यति इति अध्यक्षः प्रचण्डः समस्पष्टयत्। अष्टवर्षेभ्यः पूर्वं सौन्दर्य प्रतियोगिताम् आयोज्य एकस्याः युवत्याः बलपूर्वकम् करणीकरणस्य आरोपे प्रहरिणा ह्यः काष्ठमण्डपस्य स्वयम्भूस्थानात् मनोज पाण्डे निगृहीतो वर्तते। काष्ठमण्डपोपत्यक कापराधानुसन्धान कार्यालयस्य अनुसारेण सामाजिक सञ्जाले तया युवत्या सार्वजनिकतायां श्रव्यदृश्य सामग्र्याम् असौ पाण्डे चतुर्दशाधिक द्विसहस्रतम ख्रीष्टवर्षे मिस ग्लोबल इन्टरनेशनल इति नामिका सौन्दर्य प्रतियोगिता आयोजिता। तस्य कार्यक्रमस्य समाप्तेरनन्तरं मासषट्कं यावत् आत्मनि करणे कृते इति आरोपितो वर्तते। कतिभिर्दिवसैः विभिन्नेषु सामाजिक सञ्जालेषु महिला हिंसा भूतेति उक्त्वा संस्थापितायाः श्रव्यदृश्य सामग्र्याः अध्ययनाय संघटिताम् अनुसन्धान समितिम् सहयोक्तुम् गृहमन्त्रालयेन सर्वे अनुरुद्धाः सन्ति। मन्त्रालयेन पूर्वेद्यो विज्ञप्तिं प्रकाश्य विशेषमिन् शीघ्रम् अनुसन्धानस्य माध्यमेन तथ्यम् अन्विष्य दोषिणः अधिकतमं दण्डयितुं सर्वकारः प्रतिबद्धोऽस्तीति स्पष्टीकृतं वर्तते। प्रहरी वरिष्ठो परीक्षकस्य वसन्त बहादुर कुंवरस्य संयोजकत्वे संघटितया अनुसन्धान समित्या प्रारब्धम् अनुसन्धान कार्यं सहयोक्तुं मन्त्रालयेन सर्वे अनुरुद्धाः सन्तीति प्रवक्त्रा फणीन्द्रमणि पोखरेलेन ह्यः प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। काष्ठमण्डप उपत्यकायाः प्रायः चिकित्सालयाः रविवासरेऽपि सञ्चाल्यन्ते। सर्वकारेण प्रतिसप्ताहं दिनद्वयाय सर्वकारीय अवकाशं प्रदातुं निर्णीतं, परं दिनद्वयस्य अवकाशेन रुग्णानाम् उपचारे बाधा भवितुं शक्नोति। रविवासरेऽपि चिकित्सालयान् सञ्चालयितुं चिकित्सालयाः प्रतिबद्धाः सन्ति। उपत्यकायाः त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालयः, सर्वकारीय कर्मचारी चिकित्सालयः, कान्ति बाल चिकित्सालयः, शुक्लराज ट्रपिकल संक्रामक रोग चिकित्सालयः, शहीद गंगालाल हृदय केन्द्रम्, परोपकार प्रसूति स्त्री रोग चिकित्सालयः, अन्ये विपुलाः चिकित्सालयाश्च रविवासरेऽपि उद्घाटयिष्यन्ते सञ्चाल्यन्ते च इति स्वास्थ्यकर्मिभिः ज्ञापितं वर्तते। गण्डकी प्रदेशस्य मुख्यमन्त्री कृष्णचन्द्र नेपाली पोखरेलः प्रधानमन्त्रिणं शेरबहादुरदेवाभिधं ह्यो बालुवाटारवर्तिनी प्रधानमन्त्री निवासे मिलित्वा प्रदेशस्य विकास योजनानां सम्बन्धे ध्यानम् आकर्षयत्। मेलने मुख्यमन्त्री पोखरेलः गण्डकी प्रदेशस्य धार्मिक सांस्कृतिक पर्यटकीय विकासस्य माध्यमेन समुन्नत राष्ट्रस्य निर्माणाय महत्वपूर्णं योगदानं प्रापयितुं प्रधानमन्त्रिणः ध्यानाकर्षणम् अकारयत्। ध्यानाकर्षण पत्रस्य ग्रहणम् अनु प्रधानमन्त्री देवबा प्रदेशानां स्थानीय स्तराणां च समृद्धौ एव समग्र राष्ट्रस्य समृद्धि निर्भरायते इति चर्चयन् अवासत गण्डकी प्रदेशात् प्राप्ताः योजनाः प्राथमिकतायां संस्थाप्यन्ते। प्रधानमन्त्रिणा देवबाभिधेन ध्यानाकर्षणपत्रं राष्ट्रिय योजना योगाय अर्थमन्त्रालयाय च प्रेष्यते। यथा सम्भवं सर्वाः योजनाः आयव्ययके समावेक्ष्यन्ते इति आश्वासनं प्रदत्तमिति मुख्यमन्त्रिणा पोखरेलस्य सचिवालयेन ज्ञापितं वर्तते। योगस्य मूलौषधानां च देशस्य रूपेण नेपालम् आविश्वं परिचाय विज्ञाः बलं ददति। योगगुरुणा आचार्य राजन शर्मणा लिखितं पुस्तकं योगदर्शनं प्राचीन चिकित्सा सुखसूत्र विषयकं ग्रन्थं ह्यो विमोचितम्। लोकार्पण कार्यक्रमे उपस्थिताः वक्तारः नेपालात् उत्पन्नं योगशास्त्रं प्राकृतिक चिकित्सां च अग्रे वर्धापयितुं अस्य माध्यमेन नेपालम् आविश्वं परिचाययितुं च बलं दत्तवन्तः। आचार्यः राजन शर्मा अवदत् अन्तर्राष्ट्रिय स्तरस्य योग शिक्षकाणाम् उत्पादनाय विश्वव्यापी रूपेण योग प्रशिक्षणाभियानस्य सञ्चालनेन नेपालिनो लाभान्विताः भविष्यन्ति इति समाचाराः।